स्नातस्य प्रतिमस्य मेरुशिखरे सच्चा विभो शैशवे रूपालोकन विस्मया हृतरस भ्रांत्या भ्रम चक्षुषा उन्मृष्टं नयन प्रभाधवलितं क्षीरोदका संकया वक्त्रं यस्य पुनः पुनः सजयति श्रीवर्धमानो जिन हंसां साहत पद्मरेणुकपिश क्षीरार्णवां भोभृतये कुंभैरप्सरसां पयोधरभर प्रस्पर्धिभिः काञ्चनै येषां मन्दररत्नशैलशिखरे जन्माभिषेकः कृतः सर्वै सर्वसुरासुरेश्वरगणै स्तेषां नतोऽहं क्रमान् अर्हद्वक्त्र प्रसूतं गणधररचितं द्वादशाङ्गं विशालं चित्रं बहवर्थयुक्तं मुनिगणवृषभैर्धारितं बुद्धिमद्भिः मोक्षाग्रद्वारभूतं व्रतचरणफलं ज्ञेयभावप्रदीपं भक्त्या नित्यं प्रपद्ये श्रुतमहमखिलं सर्वलोकैकसारं निष्पङ्कव्योमनील द्युतिमलसदृशं बालचन्द्राबदंस्त्रं मत्तं घण्टारवेण प्रसृतमदजलं पूरयन्तं समन्तात् आरूढो दिव्यनागं विचरति गगने कामदः कामरूपी यक्षः सर्वानुभूतिर्दिशतु मम सदा सर्वकार्येषु सिद्धिम्।